धर्मिणी पाषंड प्रचुरे लोके कृष्ण एव गतिर्मम म्लेच्छाक्रांतेषु देशेषु पापैकनिलयेषु च सत्पीडा व्यग्रलोकेषु कृष्ण एव गतिर्मम गंगादितीर्थवर्येषु दुष्टैरेवावृतेष्विह तिरोहिताधिदैवेषु कृष्ण एव गतिर्मम अहंकार विमूढेषु सत्सु पापानुवर्तिषु लाभ पूजार्थयत्नेषु कृष्ण एव गतिर्मम अपरिज्ञान नष्टेषु मंत्रेष्व व्रतयोगिषु तिरोहितार्थ देवेषु कृष्ण एव गतिर्मम नानावाद विनाष्टेषु सर्वकर्म व्रतादिषु पाषंडैक प्रयत्नेषु कृष्ण एव गतिर्मम अजामिलादिदोषाणां नाशको भवेस्थितः ज्ञापिताखिल महात्म्यः कृष्ण एव गतिर्मम प्राकृताः सकला कृष्ण एव गतिर्मम विवेक धैर्य भक्त्यादिरहितस्य विशेषतः पापासक्तस्य दीनस्य कृष्ण एव गतिर्मम सर्वसामर्थ्य सहितः शरणस्थ समुद्धारं कृष्णं विज्ञापयाम्यहम् कृष्णाश्रयमिदं स्तोत्रं यः पठेत् कृष्णसन्निधौ तस्याश्रयो भवेत् कृष्ण इति श्रीवल्लभो